हरि ओम हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजां चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह तां महावह जातवेदो लक्ष्मीमनपगापिनीं यस्यां हिरण्यं विन्दे जङ्गामश्वं पुरुषानहम् अश्वपूर्वां रथवत्यां हस्तिनारप्रबोधिनीम् श्रियं देवीमुपःपरे श्रीर्मा देवीर्जुषताम् कांसोऽस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णान्तामिहोपःपरे श्रियम् चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजिष्टामुदाराम् तां पत्मिनीमीं शरणमहं प्रपद्ये लक्ष्मीं मे नश्यतां तां वृणे आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽध बिल्वः तस्य फलानि तपसानि दन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपैतुमान् देवसखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृत्युम् ददातु मे क्षुत्पिपासापलाञ्ज्येष्ठामलक्ष्मीर्नाशजाम्यहम् अभूतिमसमृद्धिम् च सर्वान् निर्णुद मे गृहात् गन्धद्वाराम् दुराधरिशाम् नित्यपुष्टाम् करीषिणीम् ईश्वरीकुम् सर्वभूतानान्तामिहोपःपजे श्रियम् श्रीर्मे भजतु अलक्ष्मीर्मे नश्यतु मनसः काममाकूतिम् वाचः सत्यमशीमहि पशूनागुम् रूपमन्नस्यमधि श्रीश्रयताम् यशः कर्तमेन प्रजाभूतामधिसम्भवकर्तमा श्रियम् वासय मे कुले मातरम् पत्त्वमालिनीम् आपस्रजन्तु स्निग्धानि चिक्ली तव समे गृहे निचदेवीम् मातरम् श्रियम् वासय मे कुले आहार्त्राम् पुष्करिणीम् पुष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह आर्द्राम् यः करिणीम् यष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ताम् महावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वानु विन्देयम् पुरुषानहम् यस्यति प्रयतो भूत्वा जुहुजादाज्यमन्वहम् श्रियः पञ्चदशत्यञ्च श्रीकापस्तदतम् जपेत् आनन्दः कर्तमस्तीव चिक्लीत इति विश्रुताः अर्षयस्ते त्रयः पुत्रा श्रियम् श्रीदेवि देवता पद्मानने पद्म ऊरु पद्माक्षी पद्मसम्भवे त्वम् माम् भजस्व पद्माक्षि येन सौख्यम् लभाम्यहम् अश्वदायि च गोदायि धनदायि महाधने धनम् मे द्विषताम् देवीम् सर्वकामार्थ सिद्धये पुत्रपौत्रधनम् धान्यम् हस्त्यश्वाजाभिघोरथम् प्रजानाम् भवसि माता आजिष्पन्तम् करोतु माम् चन्द्राभाम् लक्ष्मीमीशानाम् सूर्याभाम् श्रियमीश्वरीम् चन्द्रसूर्याग्निसर्वाभाम् श्रीमहालक्ष्मीमुपास्महे धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैनतेजसोमम् पिबसोमम् पिबतवृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनी न क्रोधो न च मात्सर्यम् न लोभो न शुभापतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसूक्तम् जपेत् सदा वरिषम् तु देवि भावरिधिपो अभ्रस्य विद्युतः रोहन्तु सर्वबीजान्यवब्रह्मद्विषोदिः पद्मप्रिये पत्नि पद्महस्ते पद्मालये पद्मधरायताक्षि विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व यासा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षि गंभीरा वर्तनाभिस्तनभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मी दिव्यैर्गजेन्द्रैः मणिकणखजितैः स्नापिता हेमकुम्भैः नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुरां श्रीमन्मन्दकटाक्षलब्ध विभवब्रह्मेन्द्रगङ्गाधरां त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियां शुद्धलक्ष्मीर्मोक्षलक्ष्मी जयलक्ष्मी सरस्वती श्रीर्लक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा वराङ्कुशोपासमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थां बालार्ककोटिप्रतिभां त्रिनेत्रां भजेऽहमम्बां जगदीश्वरीं तां सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते। इक्षुजालयवशस्तफलाढ्ये पारिजाततनुशोभितमूले स्वर्णरत्नमणिमण्टपमध्ये चिन्तयेत् सकललोकधरित्रीम् श्यामां विचित्रां नवरत्नभूषितां चतुर्भुजां तुङ्गपजोदरान्वितां इन्दीवराक्षीं नवशालिमञ्जरीं सुगन्धधानां विबुधां भजामहे। ॐ सक्तमिभतित पुनः पुनन्तो जत्र धीरा मनसा वाच वक्रता अत्र सखादिसख्यादि जानते भद्रैषा लक्ष्मीर्निहिताधि वाचि इदं विष्टर्विचक्रमे त्रेधान् दधे पदं समूढमस्य पागुं सुरे।